Ashtavakra Gita is a teaching in the form of a conversation between King Janaka and the sage Ashtavakra. Janaka attained self-realization by following this teaching. Bhagavan has referred to this work several times in his conversations and copied the Sanskrit verses in Devanagari script in a printed book presented to him by the then Maharaja of Mysore, Sri Krishnaraja Vadayar. An archival special edition of this book was published by the ashram in 2001. A few sample pages from the book and the verses in Devanagari as copied by Bhagavan are reproduced here. The printed book contains the Sanskrit verses in Kannada script with English meaning. Bhagavan wrote Maharaja of Mysore under the photo. Bhagavan wrote in Sanskrit Ashtavakra Gita between two Kannada script lines. Chapter 1, page 1, first verse, and last chapter, 20th chapter, page end of the printed book, page 298, are reproduced in the Hiranyabahu book. Last verse 14, Bhagavan also carried out corrections in the Kannada print script in the book. Two sample pages are reproduced. Chapter 15, verse 13, page 138, first word printed in Kannada, Etasmi, corrected as Ekasmi by Bhagavan. Second line, third word, Kuto, corrected by Bhagavan as Kutaha. It appears that Bhagavan first wrote the verses following the Kannada print script and then corrected both the scripts, since Bhagavan correspondingly carried out the corrections in Devanagari script also. Chapter 16, verse 1, first word, Achakshva, corrected by Bhagavan, both in Kannada print and Devanagari. Note, the entire Ashtavakra Gita copied by Bhagavan is presented after separating the printed text of Kannada and English. Synopsis for the 20 chapters. Chapter 1. Ashtavakra expounds to King Janaka the characteristics of the self and instructs him on the knowledge of the self that is natural and ever-existent. Chapter 2. An amazed Janaka relates the joy of his own experience on realizing the subtleties of the principles explained. Chapter 3. Ashtavakra deprecates the attachments within and without and enunciates the states of the realized. Chapter 4. Ashtavakra dwells at length on the glory of jnana, the state of self-realization. Chapter 5. Ashtavakra instructs Janaka that the world and its objects and the experiences in the world are all imagined and unreal, and exalts him therefore to gain equanimity of perception and get dissolved in the self. Chapter 6. Ashtavakra says that the self being the substratum of the circumscribed world of insentience, the question of rejecting it or accepting it or making it does not arise. Chapter 7. Janaka says that the knower of the self is one who is firmly poised in the expansive or limitless experience and sees only one, and therefore the world appearances create no impact, either favorable or unfavorable in him, nor do they generate attraction or repulsion towards them. Chapter 8. Ashtavakra then proceeds to dwell on the nature of bondage and release and reiterates the need to be egoless, that is, without the I sense, and to remain without either accepting or rejecting. Chapter 9. Ashtavakra further affirms that knowledge dawns only when the pairs of opposites are renounced, and the destruction of desire is the destruction of samsara, that is, the world, and that alone is the true state of being. Chapter 10. Ashtavakra enjoins Janaka to eschew in toto virtuous conduct, wealth, enjoyment, all transitory and unreal, and thus freed of desire, and therefore actions stilled rest only in bliss. Chapter 11. Ashtavakra continues the way of the world in its entirety is the dharma, that is, innate feature of nature. The cause of grief is thoughts. Only the one who stays firmly anchored in Atman, the substratum of all, will enjoy the bliss of peace. Chapter 12. Janaka speaks of the state of abiding in the self as self, totally detached from all deeds, physical, mental and vocal. Chapter 13. Janaka dwells on the experience of beatitude in abiding as self, the natural state, absolutely thought-free. Chapter 14. Janaka states that none can comprehend the ways of a jnani who roams in the world with perfect freedom, devoid of thoughts and mind, as his very nature, and therefore desireless and anchored firmly in the awareness of being. Chapter 15. That the very embodiment of knowledge, the substratum of the world, which keeps alternating between appearance and disappearance, art thou. The true content that appears with the desire for objects of the world and appears with the removal of it, art thou. Thou alone art everything. Therefore, be ever in bliss, absolutely, free of thought, positive or negative, or contemplation of the goal. Chapter 16. Ashtavakra instructs further that the beatitude of the Atman is gained by merely forgetting everything, all the non-self. The state of supreme bliss is the state of objectless awareness, the world of efforts of any kind. To abide in it, one must remain freed of all likes and dislikes, I, mine and thoughts. Chapter 17. Ashtavakra describes the exalted and indescribable nature of the Atmarama, who revels in the self and who enjoys the same bliss whatever he is faced with. Chapter 18. Abidance in one's natural state of quiescence by renouncing everything else is bliss. All other sadhanas are just for novices. One who abides as the self stands apart from the ways of the world. Duty, dualities and mistaken thoughts are not for him. His nature is wonderful, freed from bondage alone restores this exalted state. A jnani, a dhira, stands head and shoulders above the hapless ignorant. The bond-free natural state of a jnani is more beatific than the rule-bound state of a sadhak. Only a jnani can know another jnani. He abides forever in the non-dual state of no other or a second because of attachment aversion. Viewing equally life and death, solitude and meddling crowd, he will be anchored firmly in the true content. Thus Ashtavakra expatiates. Chapter 19. Janaka affirms his firm abidance in the glory of the self by his non-mediated experience of jnana, gained by banishing all thoughts, positive and negative. He further declares that except the glory of the self, he has nothing else. Chapter 20. Janaka conclusively affirms that in him, who is pure awareness personified, there exist neither the instruments of action nor perception, none whatsoever of the dualities, the triads of action, the world, the jivas, the maya, samsara nor mukti. An extract from Sri Ramana Reminiscences by G.V. Subramaya. Bhagavan narrated in a most dramatic and thrilling manner the famous story of King Janaka and sage Ashtavakra to show how self-surrender automatically brings about self-realization. Having read somewhere in the scriptures that the self could be realized in the interval between a horse rider putting one foot in the stirrup and raising the other foot for mounting. King Janaka summoned all pandits in his kingdom and demanded of them either to prove the statement or to denounce it. They could not prove it, but as it was a scriptural saying, they dared not denounce it. The king, enraged at this, put them all in prison. Sage Ashtavakra, passing near Janaka's kingdom, was informed of the above and warned not to enter it. Nevertheless, he went in, was summoned before the king and questioned about the saying. Ashtavakra replied that he would prove it under certain conditions. First, the king must accept him as guru and obey him implicitly. Second, he must immediately set free all the pandits. Third, he must surrender the kingdom and all his personal possessions. King Janaka carried out all the conditions. Now the sage, calling him Janaka, as he was no longer the king, ordered him to follow him alone with a horse outside the capital city. There Ashtavakra asked Janaka to place one foot in the stirrup and raise the other foot, and then said, "Now comes the supreme condition. You must surrender yourself. Are you willing?" Janaka said, "Yes." From that moment, Janaka stood transfixed with one foot in the stirrup and the other dangling in the air, apparently like a statue. Here, Sri Bhagavan imitated the posture of Janaka. When the palace people came and saw him in that state, they were alarmed and begged the sage to show grace and save the king. The sage said, "Janaka, why are you like this? Ride home on the horse." To the great relief of the people, Janaka rode home and obeyed the sage in everything like a bond slave. "Now, do you admit the truth of the scriptural saying?" asked the sage. "Yes," said Janaka. "Then rule the kingdom as before," ordered Ashtavakra. "Is not the kingdom yours now?" Janaka asked. "Yes," replied the sage, "but I order you to rule the kingdom in my name." "I obey," said Janaka.
Om Namo Bhagavate Sri Ramanaya. Ashtavakra Gita Prathamodhyaya. Ashtavakrena Janakaya Swarupalakshanopadesha Sahajajnanopadeshascha. Janaka Uvacha. कथम ज्ञानम अवाप्नोति कथम मुक्तिर भविष्यति वैराग्यम च कथम प्राप्तम एतद् ब्रूहि मम प्रभो। अष्टावक्र उवाच मुक्तिमिच्छसि चेत् तात विषयान् विषवत्यज क्षमार्जव दयातोष सत्यम पीयूषवत् भज न पृथ्वी न जलम नाग्निः न वायुर्द्यौर्न वा भवान् एषाम् साक्षिणमात्मानम् चिद्रूपम् विद्धि मुक्तये यदि देहम् पृथक् कृत्य चितिविश्राम्य तिष्ठसि अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि न त्वम् विप्रादिको वर्णो नाश्रमी नाक्षगोचरः असङ्गोऽसि निराकारः विश्वसाक्षी सुखी भव धर्माधर्मौ सुखम् दुःखम् मानसानि न ते विभो न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा अयमेव हि ते बन्धः द्रष्टारम् पश्यसीतरम् अहम् कर्तेत्यहम् मान महाकृष्णाहिदम् शितः नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव एको विशुद्ध बोधोऽहम् इति निश्चयवह्निना प्रज्वाल्य अज्ञानगहनं वीतशोकः सुखी भव यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् आनन्दपरमानन्दः सबोधस्त्वं सुखं शर ముక్తాభిమానీ ముక్తో హి బద్ధో బద్ధాభిమాన్యపి కిం వదంతీహ సత్యేయం యామతి సాగతిర్భవేత్. ఆత్మా సాక్షీ విభుః పూర్ణః ఏకో ముక్తశ్చిదక్రియః అసంగో నిస్పృహ శాంతో భ్రమాత్ సంసారవానివ. కూటస్థం బోధమద్వైతం ఆత్మానం పరిభావయ. ఆభాసోహం భ్రమం ముక్త్వా భావం బాహ్యమథాంతరం. దేహాభిమాన పాశేన చిరం బద్ధోసి పుత్రక. బోధోహం జ్ఞాన ఖడ్గేన తం నికృంత్య సుఖీ భవ. నిస్సంగో నిష్క్రియోసి త్వం స్వప్రకాశో నిరంజన. అయమేవ హి తే బంధ సమాధిమనుతిష్ఠసి. త్వయా వ్యాప్తమిదం విశ్వం త్వయి ప్రోతం యథార్థతః. శుద్ధబుద్ధస్వరూపస్త్వం మాగమః శుద్రచిత్తతాం. నిరపేక్షో నిర్వికారో నిర్భరశీతళాశయః. అగాధబుద్ధిరక్షుబ్ధో భవచిన్మాత్రవాసనః. సాకారమనృతం విద్ధి నిరాకారం తు నిశ్చలం. ఏతత్తత్వోపదేశేన న పునర్భవ సంభవః. యథైవాదర్శ మధ్యస్థే రూపేంతః పరితస్తు సః. తథైవాస్మిన్ శరీరేంతః పరితః పరమేశ్వరః. ఏకం సర్వగతం వ్యోమ బహిరంతర్యథా ఘడే. నిత్యం నిరంతరం బ్రహ్మ సర్వభూతగణే తథా. ఓం. ద్వితీయోధ్యాయ. జనకేన సూక్ష్మతత్వం బుద్ధ్వా ఆశ్చర్యేణ స్వానుభవ కథనం. జనక ఉవాచ. అహో నిరంజన శాంతో బోధోహం ప్రకృతేః పరః. ఏతావంతమహం కాలం మోహేనైవ విడంబితః. యథా ప్రకాశయామ్యేకో దేహమేనం తథా జగత్. అతో మమ జగత్ సర్వం అథవా న చ కించన. సశరీరమహో విశ్వం పరిత్యజ్య మయాధునా. కుతశ్చిత్ కౌశలాదేవ పరమాత్మా విలోక్యతే. యథా నతో యతో భిన్నా తరంగాః ఫేన బుద్భుతాః. ఆత్మనోన తథా భిన్నం విశ్వమాత్మ వినిర్గతం. తంతుమాత్రో భవేదేవ పటో యద్వద్విచారితః. ఆత్మ తన్మాత్రమే వేదం తద్వద్విశ్వం విచారితం. యథైవేక్షురసే క్లుప్తా తేన వ్యాప్తైవ శర్కరా. తథా విశ్వం మయి క్లుప్తం మయా వ్యాప్తం నిరంతరం. ఆత్మాజ్ఞానాదగద్భాతి ఆత్మజ్ఞానాత్ నభాసతే. రజ్వజ్ఞానాదాహిర్భాతి తజ్ఞానాత్ భాసతే నహి. ప్రకాశో మే నిజం రూపం నాతిరిక్తోస్మ్యహం తతః. యదా ప్రకాశతే విశ్వం తదాహం భాస ఏవ హి. అహో వికల్పితం విశ్వం అజ్ఞానాత్ మయి భాసతే. రూప్యం శుక్తౌ ఫణీ రజ్జౌ వారి సూర్యకరే యథా. మత్తో వినిర్గతం విశ్వం మయ్యేవ లయమేష్యతి. మృది కుంభో జలే వీచిః కనకే కటకం యథా. అహో అహం నమో మహ్యం వినాశో యస్య నాస్తి మే. బ్రహ్మాదిస్తంభ పర్యంతం జగన్నాశేపి తిష్ఠతః. అహో అహం నమో మహ్యం ఏకోహం దేహవానపి. క్వచిన్నగంతా నాగంతా వ్యాప్య విశ్వమవస్థితః. అహో అహం నమో మహ్యం దక్షో నాస్తీహ మత్సమః. అసంస్పృశ్య శరీరేణ ఏన విశ్వం చిరం ధృతం. అహో అహం నమో మహ్యం యస్య మే నాస్తి కించన. అథవా యస్య మే సర్వం యద్వాంగ్మనసగోచరం. జ్ఞానం జ్ఞేయం తథా జ్ఞాత త్రితయం నాస్తి వాస్తవం. అజ్ఞానాద్భాది యత్రేదం సోహమస్మి నిరంజనః. ద్వైతమూలమహో దుఃఖం నాన్యత్ తస్యాస్తి భేషజం. ദൃശ്യമേതന്മൃഷാ സർവം ഏകോഹം ചിദ്രസോമല ബോധമാത്രോഹമജ്ഞാത് ഉപാധി കൽപ്പിതോ മയാം ഏവം വിമൃശതോ നിത്യം നിർവികൽപേ സ്ഥിതിർ മമ നമേ ബന്ധോസ്തി മോക്ഷോ വാം ഭ്രാന്തി ശാന്താ നിരാശ്രയാ അഹോ മയി സ്ഥിതം വിശ്വം വസ്തുതോ ന മയി സ്ഥിതം സശരീരമിദം വിശ്വം ന കിഞ്ചിദിതി നിശ്ചിതം ശുദ്ധചിന്മാത്ര ആത്മാ ച തത്കസ്മിൻ കൽപ്പനാധുനാ ശരീരം സ്വർഗനരകൗ ബന്ധമോക്ഷൗ ഭയം തഥാ കൽപ്പനാമാത്രമേവൈതത് കിം മേ കാര്യം ചിദാത്മനഃ അഹോ ജനസമൂഹേപി ന ദ്വൈതം പശ്യതോ മമ അരണ്യമിവ സംവൃത്തം ക്വരതിം കരവാണ്യഹം നാഹം ദേഹോ ന മേ ദേഹഃ ജീവോ നാഹം അഹം ഹി ചിത് അയമേവ ഹി മേ ബന്ധഃ ആസീദ്യാ ജീവിതേ സ്പൃഹാ അഹോ ഭുവനകല്ലോലൈഃ വിചിത്രൈർദ്രാക് സമുത്ഥിതം മയ്യനന്തമഹാംബോധോ ചിത്തവാതേ സമുദ്യതേ മയ്യനന്തമഹാംബോധോ ചിത്തവാതേ പ്രശാമ്യതി അഭാഗ്യാജ്ജീവവണിജഃ ജഗത്പോതോ വിനശ്വരഃ മയ്യനന്തമഹാംബോധോ ആശ്രയം ജീവവീചയഃ ഉദ്യന്തി ഘ്നന്തി ഖേലന്തി പ്രവിശന്തി സ്വഭാവതഃ ഓം തൃതീയോധ്യായഃ അന്തർബഹിസ്സംഗം വിനിന്ദ്യ ജ്ഞാനിനഃ സ്വരൂപനിഷ്ഠാ കഥനം അഷ്ടാവക്ര ഉവാച അവിനാശിനമാത്മാനം ഏകം വിജ്ഞായ തത്വതഃ തവാത്മജ്ഞസ്യ ധീരസ്യ കഥമർത്ഥാർജനേ രതിഃ ആത്മാജ്ഞാനാദ് അഹോ പ്രീതിഃ വിഷയേ ഭ്രമഗോചരേ ശുക്തേരജ്ഞാനതോ ലോഭഃ യഥാ രജത വിഭ്രമേ വിശ്വം സ്ഫുരതി യത്രേദം തരംഗായിവ സാഗരേ സോഹമസ്മീതി വിജ്ഞായ കിം ദീന ഇവ ധാവസീ ശ്രുത്വാപി ശുദ്ധചൈതന്യം ആത്മാനം അതിസുന്ദരം ഉപസ്ഥേത്യന്തസംസക്തോ മാലിന്യമധിഗച്ഛതി സർവഭൂതേഷു ച ആത്മാനം സർവഭൂതാനി ച ആത്മനി മുനേർജാനത ആശ്ചര്യം മമത്വമനുവർത്തതേ ആസ്ഥിതഃ പരമാദ്വൈതം മോക്ഷാർത്ഥേപി വ്യവസ്ഥിതഃ ആശ്ചര്യം കാമവശഗോ വികലഃ കേളിശിക്ഷയാ ഉദ്ഭൂതം ജ്ഞാനദുർമിത്രം അവധാര്യാതി ദുർബലഃ ആശ്ചര്യം കാമമാകാംക്ഷേത് കാലമന്തമനുശ്രിതഃ ഇഹാമുത്ര വിരക്തസ്യ നിത്യാനിത്യവിവേകിനഃ ആശ്ചര്യം മോക്ഷകാമസ്യ മോക്ഷാദേവ വിഭീഷിക ധീരസ്തു ഭോജ്യമാനോപി പീഡ്യമാനോപി സർവദാം ആത്മാനം കേവലം പശ്യൻ ന തുഷ്യതി ന കുപ്യതി ചേഷ്ടമാനം ശരീരം സ്വം പശ്യത്യന്യശരീരവത് സംസ്തവേ ചാപി നിന്ദായാം കഥം ക്ഷുഭ്യേന്മഹാശയഃ മായാമാത്രമിദം വിശ്വം പശ്യൻ വിഗതകൗതുകഃ അപി സന്നിഹിതേ മൃത്യോ കഥം ത്രസ്യതി ധീരധീഃ നിസ്പൃഹം മാനസം യസ്യ നൈരാശ്യേപി മഹാത്മനഃ തസ്യാത്മജ്ഞാനതൃപ്തസ്യ തുലനാ കേന ജായതേ സ്വഭാവാദേവ ജാനാനോ ദൃശ്യമേതന്ന കിഞ്ചന ഇതം ഗ്രാഹ്യമിദം ത്യാജ്യം സകിം പശ്യതി ധീരധീഃ അന്തസ്ത്യക്തകഷായസ്യ നിർദ്വന്ദ്വസ്യ നിരാശിഷഃ യദൃച്ഛയാഗതോ ഭോഗഃ ന ദുഃഖായ ന തുഷ്ടയേ ഓം ചതുർത്ഥോധ്യായഃ ജ്ഞാനനിഷ്ഠാ വൈഭവ ഉദ്ഘോഷഃ അഷ്ടാവക്ര ഉവാച ഹന്താത്മജ്ഞസ്യ ധീരസ്യ ഖേലതോ ഭോഗലീലയാ നഹി സംസാരബാഹീകൈഹി മൂഢൈഹി സഹസമാനതാ യത്പദം പ്രേപ്സവോ ദീനാഃ ശക്രാദ്യാഃ സർവദേവതാഃ अहो तत्र स्थितो योगी न हर्षमुपगच्छति। तज्ञस्य पुण्यपापाभ्याम् स्पर्शो ह्यन्तर्न जायते। न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः। आत्मैवेदम् जगत्सर्वम् ज्ञातम् येन महात्मना। यदृच्छया वर्तमानम् तम् निषेद्धुम् क्षमेत कः। आब्रह्मस्तम्भपर्यन्ते भूतग्रामे चतुर्विधे। विज्ञस्यैव हि सामर्थ्यम् इच्छानिच्छाविवर्जने। आत्मानम् अद्वयम् कश्चित् जानाति जगदीश्वरम्। यद्वेत्ति तत्सकुरुते न भयम् तस्य कुत्रचित्। ओम् पञ्चमोऽध्यायः। अष्टावक्रेण जनकम् प्रति सर्वम् दृश्यम् मायेति बुद्ध्वा सर्वसमत्वभावमापद्य स्वरूपानुभवे विश्रान्तिमागच्छेत्युपदेशः। अष्टावक्र उवाच। न ते सङ्गोऽस्ति केनापि किम् शुद्धः त्यक्तुमिच्छसि। सङ्घादविलयम् कुर्वन् एवमेव लयम् व्रज। उदेति भवतो विश्वम् वारिधेरिव बुद्बुदः। इति ज्ञात्वैकमात्मानम् एवमेव लयम् व्रज। प्रत्यक्षमप्यवस्तुत्वात् विश्वम् नास्त्यमले त्वयि। रज्जुसर्प इव त्यक्तम् एवमेव लयम् व्रज। समदुःखसुखः पूर्ण आशानैराश्ययोः समः। समजीवितमृत्युः सन् एवमेव लयम् व्रज। ओम् षष्ठोऽध्यायः। परिच्छिन्न प्रपञ्चानुभवस्य अधिष्ठानभूतोऽहम् इत्यतः नास्त्यस्य जगतः हेयोपादेयता सन्न्यासो वा इति जनकस्य स्वानुभववचनम्। जनक उवाच। आकाशवदनन्तोऽहम् घटवत्प्राकृतम् जगत्। इति ज्ञानम् तथैतस्य न त्यागो न ग्रहोलयः। महोदधिरिवाहम् स प्रपञ्चो वीचि सन्निभः। इति ज्ञानम् तथैतस्य न त्यागो न ग्रहोलयः। अहम् सशुक्ति सङ्काशो रूप्यवद्विश्वकल्पना। इति ज्ञानम् तथैतस्य न त्यागो न ग्रहोलयः। अहम् वा सर्वभूतेषु सर्वभूतान्यथो मयि। इति ज्ञानम् तथैतस्य न त्यागो न ग्रहोलयः। ओम् सप्तमोऽध्यायः। अखण्डबोधे निष्ठस्य मरीचिकाकल्पजगत्प्रतीत्याम् नापि वा लाभः नैव दोषः। व्यवहारे नैव तस्य रागद्वेषौ इति जनकवचनम्। जनक उवाच। मय्यनन्तमहाम्बोधौ विश्वपोत इतस्ततः। भ्रमति स्वान्तवातेन न ममास्ति असहिष्णुता। मय्यनन्तमहाम्बोधौ जगद्वीचिः स्वभावतः। उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः। मय्यनन्तमहाम्बोधौ विश्वम् नाम विकल्पना। अतिशान्तो निराकार एतदेवाहमास्थितः। नात्माभावेषु नो भावः तत्रानन्ते निरञ्जने। इत्यसक्तो अस्पृहशान्त एतदेवाहमास्थितः। अहो चिन्मात्रमेवाहम् इन्द्रजालोपमम् जगत्। अतो मम कथम् कुत्र हेयोपादेयकल्पना। ओम् अष्टमोऽध्यायः। अष्टावक्रेण बन्धमुक्तिलक्षणम् उक्त्वा रिक्ताहङ्कारः सन् हेयोपादेयविहीनः विहरेत्युपदेशः। अष्टावक्र उवाच। तदा बन्धो यदा चित्तम् किञ्चित् वाञ्छति शोचति। किञ्चिन्मुञ्जति गृह्णाति किञ्चित् हृष्यति कुप्यति। तदा मुक्तिर्यदा चित्तम् न वाञ्छति न शोचति। न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति। तदा बन्धो यदा चित्तम् सक्तम् कास्वपि दृष्टिषु। तदा मोक्षो यदा चित्तम् असक्तम् सर्वदृष्टिषु। యదానాహం తదా మోక్ష యదాహం బంధనం తదా మత్వేతి హేలయా కించిత్ మా గృహాణ విముంచమా. ఓం. నవమోధ్యాయః. ద్వంద్వాన్ని అధీత్య స్వరూప జ్ఞానోదయః సంస్కారనాశేన సంసారనాశః తేనైవ సత్యాత్మనిష్ఠా ఇతి అష్టావక్రేణ జనకం ప్రతి ఉపదేశః. నిర్వేదాష్టకం. అష్టావక్ర ఉవాచ: కృతాకృతే చ ద్వంద్వాని కదా శాంతాని కస్య వా. ఏవం జ్ఞాత్వేహ నిర్వేదాత్ భవత్యాగపరో అవ్రతి. కస్యాపి తాత ధన్యస్య లోకచేష్టావలోకనాత్ జీవితేచ్ఛా బుభుక్షా చ బుభుత్సోపశమం గతాః. అనిత్యం సర్వమేవేదం తాపత్రితయదూషితం అసారం నిందితం హేయం ఇతి నిశ్చిత్య శామ్యతి. కోసౌ కాలో వయః కిం వా యత్ర ద్వంద్వాని నో నృణాం తాన్యుపేక్ష్య యథా ప్రాప్తవర్తి సిద్ధిమవాప్నుయాత్. నానామతం హర్షీణాం సాధూనాం యోగినాం తథా దృష్ట్వా నిర్వేదమాపన్నః కో న శామ్యతి మానవః. కృత్వా మూర్తి పరిజ్ఞానం చైతన్యస్య న కిం గురుః నిర్వేద సమతాయుక్త్యా యస్తారయతి సంశృతేః. పశ్య భూత వికారాంస్త్వం భూతమాత్రాన్ యథార్థతః తక్షణాద్ బంధ నిర్ముక్తః స్వరూపస్థో భవిష్యసి. వాసనాయేవ సంసార ఇతి సర్వా విముంచతాః తత్యాగో వాసనాత్యాగాత్ స్థితిరద్య యథా తథా. ఓం. దశమోధ్యాయః. ఉపశమాష్టకం. అనేకాంతికం ధర్మార్థ కామత్రయం సన్యస్య ఆశాం విహాయ సుఖస్వరూపే విశ్రాంతిమాగచ్చేత్యుపదేశః. అష్టావక్ర ఉవాచ: విహాయ వైరిణం కామం అర్థం చానర్థసంకులం ధర్మమప్యేతయోర్హేతుం సర్వత్రానాదరం కురు. స్వప్నేంద్రజాలవత్ పశ్య దినాని త్రీణి పంచవా మిత్రక్షేత్రధనాగార దారాదాయాతి సంపదః. యత్ర యత్ర భవేత్ తృష్ణా సంసారం విద్ధి తత్ర వై ప్రౌఢ వైరాగ్యమాశ్రిత్య వీత తృష్ణ సుఖీ భవ. తృష్ణామాత్రాత్మకో బంధః తన్నాశో మోక్ష ఉచ్యతే భవాసంసక్తిమాత్రేణ ప్రాప్తితుష్టిర్ముహుర్ముహుః. త్వమేకశ్చేతన శుద్ధో జడం విశ్వమసత్తథాం అవిద్యాపి న కించిత్ సా కా బుభుత్సా తథాపి తే. రాజ్యం సుతాః కళత్రాణి శరీరాణి సుఖాని చ సంసక్తస్యాపి నష్టాని తవ జన్మని జన్మని. అలమర్థేన కామేన సుకృతేనాపి కర్మణా ఏభ్యః సంసారకాంతారే న విశ్రాంతం అభూన్మనః. కృతం న కతి జన్మాని కాయేన మనసా గిరా దుఃఖమాయాసదం కర్మ తదద్యాప్యుపరమ్యతాం. ఓం. ఏకాదశోధ్యాయః. జ్ఞానాష్టకం. సర్వం చ లౌకికం ప్రకృతేః వికారః. చిత్తవృత్తిరేవ దుఃఖహేతుః. సర్వాధిష్టానభూతే ఆత్మని యః నిష్టః స ఏవ పరమోపశాంతిం ప్రాప్నోతీతి చ ఉపదేశః. అష్టావక్ర ఉవాచ: భావాభావ వికారశ్చ స్వభావాదితి నిశ్చయి నిర్వికారో గతక్లేశః సుఖేనైవోపశామ్యతి. ఈశ్వరః సర్వనిర్మాత నేహాన్యైతి నిశ్చయి అంతర్గళిత సర్వాశః శాంతః క్వాపి న సజ్జతే. ఆపదః సంపదః కాలే దైవాదేవేతి నిశ్చయి తృప్తస్వస్థేంద్రియో నిత్యం న వాంఛతి న శోచతి. సుఖదుఃఖే జన్మమృత్యు దైవాదేవేతి నిశ్చయి సాధ్యాదర్శీని రాయాస కువన్నపి నలిప్యతే చింతయా జాయతే దుఃఖం నాణ్యతే హేతి నిశ్చయి తయా హీన సుఖీ శాంత సర్వత్ర గళిత స్పృహ నాహం దేహో నమే దేహ బోధోహమితి నిశ్చయి కైవల్యమివ సంప్రాప్తో నస్మరత్యకృతం కృతం ఆబ్రహ్మస్తంభ పర్యంతం అహమేవేతి నిశ్చయి నిర్వికల్పశుశాంతః ప్రాప్తా ప్రాప్త వినిర్వృతః నానాశ్చర్యమిదం విశ్వం న కించిదితి నిశ్చయి నిర్వాసనస్ఫూర్తిమాత్రో న కించిదివ శామ్యతి. ఓం. ద్వాదశోధ్యాయః. శరీరవాంగ్మనోభిః క్రియమాణాసు సర్వాసు క్రియాసు స్వస్య అసంగత్వం బుద్ధ్వా స్వాత్మనిష్టాం ఉద్ఘోషయతి జనకః. జనక ఉవాచ: కాయకృత్యాసః పూర్వం తతో వాగ్విస్తరాసః అథ చింతాసహస్తస్మాత్ ఏవమేవాహమాస్థితః. ప్రీత్యభావేన శబ్దాదేః అదృశ్యత్వేన చాత్మనః విక్షేపైకాగ్రహృదయ ఏవమేవాహమాస్థితః. సమాధ్యాసాది విక్షిప్తౌ వ్యవహారః సమాధయే ఏవం విలోక్యే నియమం ఏవమేవాహమాస్థితః. హేయోపాదేయ విరహాద్ ఏవం హర్ష విషాదయోః అభావాద్ అద్య హే బ్రహ్మన్ ఏవమేవాహమాస్థితః. ఆశ్రమానాశ్రమం ధ్యానం చిత్తస్వీకృతవర్జనం వికల్పం మమ వీక్ష్యైతైః ఏవమేవాహమాస్థితః. కర్మానుష్ఠానమజ్ఞానాద్ యథైవ ఉపరమస్తథా బుద్ధ్వా సమ్యగిదం తత్వం ఏవమేవాహమాస్థితః. అచింత్యం చింత్యమానోపి చింతారూపం భజత్యసౌ త్యక్త్వా తద్భావనం తస్మాద్ ఏవమేవాహమాస్థితః. ఏవమేవ కృతం యేన సకృతార్థో భవేదసౌ ఏవమేవ స్వభావో యః సకృతార్థో భవేదసౌ. ఓం. త్రయోదశోధ్యాయః. సహజ స్వరూపాత్మనిష్టాయాం అవిచ్ఛిన్న నిర్వికల్పానందానుభూతిమాస్వాద్య గాయతి జనకః. జనక ఉవాచ: అకించన భవం స్వాస్థ్యం కౌపీనత్వేపి దుర్లభం త్యాగాదాని విహాయస్మాద్ అహమాసే యథా సుఖం. కుత్రాపి ఖేదః కాయస్య జిహ్వా కుత్రాపి ఖిద్యతే మనః కుత్రాపి తత్యక్త్వా పురుషార్థే స్థితః సుఖం. కృతం కిమపి నైవ స్యాద్ ఇతి సంచింత్య తత్వతః యదా యత్ కర్తుమాయాతి తత్ కృత్వాసే యథా సుఖం. కర్మ నైష్కర్మ్య నిర్బంధ భావా దేహస్థ యోగినః సంయోగాయోగ విరహాద్ అహమాసే యథా సుఖం. అర్థానర్థౌ నమే స్థిత్యాం గత్యాన శయనేన వా తిష్ఠన్ గచ్ఛన్ స్వపన్ తస్మాద్ అహమాసే యథా సుఖం. స్వపతో నాస్తి మే హానిః సిద్ధిర్యత్నవతో నవా నాశోల్లాసో విహాయాస్మాద్ అహమాసే యథా సుఖం. సుఖాదిరూపా నియమం భావేష్వాలోక్య భూరిషః శుభాశుభే విహాయాస్మాద్ అహమాసే యథా సుఖం. ఓం. చతుర్దశోధ్యాయః. స్వాభావికతయా వికల్పవృత్తిహీనః సర్వకామనివృత్తః నిజబోధనిష్ఠః విద్వాన్ సర్వస్వాతంత్ర్యేణ విహరతి తస్య స్థితిం భావయితుం లౌకికానాం నాస్తి శక్తిః ఇతి జనకవచనం. జనక ఉవాచ: ప్రకృత్యా శూన్యచిత్తో యః ప్రమాదాద్ భావభావనః నిద్రితో బోధిదైవ క్షీణసంసరణో హి సః క్వ ధనాని క్వ మిత్రాణి క్వ మే విషయతస్య వః క్వ శాస్త్రం క్వ చ విజ్ఞానం యదా మే గళితా స్పృహా. విజ్ఞాతే సాక్షి పురుషే పరమాత్మనిచేశ్వరే నైరాశ్యే బంధమోక్షే చ న చింతా ముక్తయే మమ. अन्तर्विकल्पशून्यस्य बहिःस्वच्छन्दचारिणः भ्रान्तस्येव दशास्तास्ताः तादृशा एव जानते। ओम् पञ्चदशोऽध्यायः वैशैकरसेन यत्तिरोभूतम् विषयवैरस्येन च यत्प्रकाशमानम् यच्च विश्वोदयस्थितिप्रलयप्रतीतेः अधिष्ठानम् तत् नित्यमुक्तम् ज्ञानमयम् वस्तु त्वमसि, त्वमेव सर्वम्, नान्यद्वितीयमस्ति। तस्मात् विकल्पवृत्तिहीनः ध्यातृध्येयादिभावशून्यः निरपेक्षः सुखम् विहर इति अष्टावक्रस्य उपदेशः। अष्टावक्र उवाच, यथा तथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति। मोक्षो विषयवैरस्यम् बन्धो वैषयिको रसः, एतावदेव विज्ञानम् यथेच्छसि तथा कुरु। वाग्मि प्राज्ञमहोद्योगम् जनम् मूकजडालसम्, करोति तत्त्वबोधोऽयम् अतस्त्यक्तो बुभुक्षुभिः। न त्वम् देहो न ते देहो, भोक्ता कर्ता न वा भवान्, चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखम् चर। रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन, निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखम् चर। सर्वभूतेषु चात्मानम् सर्वभूतानि चात्मनि, विज्ञाय निरहङ्कारो निर्ममस्त्वम् सुखी भव। विश्वम् स्फुरति यत्रेदम् तरङ्गा इव सागरे, तत्त्वमेव न सन्देहः चिन्मूर्ते विज्वरो भव। श्रद्धस्वतात श्रद्धस्व नात्र मोहम् कुरुष्व भोः, ज्ञानस्वरूपो भगवान् आत्मा त्वम् प्रकृतेः परः। गुणैः संवेष्टितो देहः तिष्ठत्यायाति याति च, आत्मा न गन्ता नागन्ता किम् एनम् अनुशोचसि। देहस्तिष्ठतु कल्पान्तम् गच्छत्वद्यैव वा पुनः, क्व वृद्धिः क्व च वा हानिः तव चिन्मात्ररूपिणः। त्वय्यनन्तमहाम् बोधौ विश्ववीचिस्वभावतः, उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः। तात चिन्मात्ररूपोऽसि न ते भिन्नमिदम् जगत्, अतः कस्य कथम् कुत्र हेयोपादेयकल्पना। एकस्मिन्नव्यये शान्ते चिदाकाशे अमले त्वयि, कुतो जन्मा कुतः कर्मा कुतोऽहङ्कार एव च। यत्त्वम् पश्यसि तत्रैकः त्वमेव प्रतिभाससे, किम् पृथक् भासते स्वर्णात् कटकाङ्गदनूपुरम्। अयम् सोऽहम् अयम् नाहम् विभागमिति सन्त्यज, सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव। तवैव अज्ञानतो विश्वम् त्वमेकः परमार्थतः, त्वत्तोऽन्यो नास्ति संसारी न असंसारी च कश्चन। भ्रान्तिमात्रमिदम् विश्वम् न किञ्चित् इति निश्चयी, निर्वासनस्फूर्तिमात्रो न किञ्चिदिव शाम्यति। एक एव भवाम् बोधौ आसीत् अस्ति भविष्यति, न ते बन्धोऽस्ति मोक्षो वा कृतकृत्यः सुखम् चर। मा सङ्कल्पविकल्पाभ्याम् चित्तम् क्षोभयचिन्मय, उपशाम्य सुखम् तिष्ठ स्वात्मन्यानन्दविग्रहे। त्यजैव ध्यानम् सर्वत्र मा किञ्चित् हृदि धारय, आत्मा त्वम् मुक्त एवासि किम् विमृश्य करिष्यसि। ॐ षोडशोऽध्यायः सर्वविस्मरणादेव आत्मानन्दप्राप्तिः, विगतप्रयत्नानिर्विषयानिष्ठैव अपरिमितानन्दस्थितिः। विगतरागद्वेषः चित्तवृत्तिहीनः अहम् ममादिरहितः हेयोपादेयमुक्तः ताम् निष्ठाम् प्राप्नोति इति अष्टावक्रवचनम्। अष्टावक्र उवाच, ಆಚಕ್ಷ್ವಶೃಣುವಾತಾತ ನಾನಾ ಶಾಸ್ತ್ರಾಣಿ ಅನೇಕಶಃ ತಥಾಪಿ ನವ ತವ ಸ್ವಾಸ್ಥ್ಯಂ ಸರ್ವವಿಸ್ಮರಣಾದೃತೇ ಭೋಗಂ ಕರ್ಮ ಸಮಾಧಿಂ ವಾ ಕುರು ವಿಜ್ಞ ತಥಾಪಿ ತೇ ಚಿತ್ತಂ ನಿರಸ್ತ ಸರ್ವಾಶಂ ಅತ್ಯರ್ಥಂ ರೋಚಯಿಷ್ಯತಿ. ಆಯಾಸಾತ್ ಸಕಲೋ ದುಃಖೀ ನೈನಂ ಜಾನಾತಿ ಕಶ್ಚನ ಅನೇನೈವೋಪದೇಶೇನ ಧನ್ಯಃ ಪ್ರಾಪ್ನೋತಿ ನಿರ್ವೃತಿಂ. ವ್ಯಾಪಾರೇ ಖಿದ್ಯತೆ ಯಸ್ತು ನಿಮೇಷೋನ್ಮೇಷಯೋರಪಿ ತಸ್ಯಾಲಸ್ಯ ಧುರೀಣಸ್ಯ ಸುಖಂ ನಾನ್ಯಸ್ಯ ಕಸ್ಯಚಿತ್. ಇದಂ ಕೃತಮಿದಂ ನೇತಿ ದ್ವಂದ್ವೈರ್ಮುಕ್ತಂ ಯದಾ ಮನಃ ಧರ್ಮಾರ್ಥಕಾಮಮೋಕ್ಷೇಷು ನಿರಪೇಕ್ಷಂ ತದಾ ಭವೇತ್. ವಿರಕ್ತೋ ವಿಷಯದ್ವೇಷ್ಟಾ ರಾಗೀ ವಿಷಯಲೋಲುಪಃ ಗ್ರಹಮೋಕ್ಷವಿಹೀನಸ್ತು ನ ವಿರಕ್ತೋ ನ ರಾಘವಾನ್. ಹೇಯೋಪಾದೇಯತಾ ತಾವತ್ ಸಂಸಾರ ವಿತಪಾಂಕುರಃ ಸ್ಪೃಹಾ ಜೀವತಿ ಯಾವದ್ವೈ ನಿರ್ವಿಚಾರದಶಾಸ್ಪದಂ. ಪ್ರವೃತ್ತೌ ಜಾಯತೆ ರಾಗೋ ನಿವೃತ್ತೌ ದ್ವೇಷ ಏವ ಹಿ ನಿರ್ದ್ವಂದ್ವೋ ಬಾಲವದ್ಧೀಮಾನ್ ಏವಮೇವ ವ್ಯವಸ್ಥಿತಃ. ಹಾತುಮಿಚ್ಛತಿ ಸಂಸಾರಂ ರಾಗೀ ದುಃಖಜಿಹಾಸಯಾ ವೀತರಾಗೋ ಹಿ ನಿರ್ದುಃಖಃ ತಸ್ಮಿನ್ ಅಪಿ ನ ಖಿದ್ಯತಿ. ಯಸ್ಯಾಭಿಮಾನೋ ಮೋಕ್ಷೇಪಿ ದೇಹೇಪಿ ಮಮತಾ ತಥಾ ನ ಚ ಜ್ಞಾನೀನ ವಾ ಯೋಗೀ ಕೇವಲಂ ದುಃಖಭಾಗಸೋ. ಹರೋ ಯದ್ಯುಪದೇಷ್ಟಾತೇ ಹರಿಃ ಕಮಲಜೋಪಿ ವಾ ತಥಾಪಿ ನ ತವ ಸ್ವಾಸ್ಥ್ಯಂ ಸರ್ವವಿಸ್ಮರಣಾದೃತೇ. ಓಂ. ಸಪ್ತದಶೋಧ್ಯಾಯ ಆತ್ಮಾರಾಮಸ್ಯ ಸಮರಸಾನಂದಾನುಭೂತಿಂ ಅಪ್ರಚಲಿತ ನಿಷ್ಠಾಂ ಚ ಪ್ರವತ್ತಿ. ಅಷ್ಟಾವಕ್ರವಾಚ ತೇನ ಜ್ಞಾನಫಲಂ ಪ್ರಾಪ್ತಂ ಯೋಗಾಭ್ಯಾಸಫಲಂ ತಥಾ ತೃಪ್ತಸ್ವಚ್ಛೇಂದ್ರಿಯೋ ನಿತ್ಯಂ ಏಕಾಕೀರಮತೇತು ಯಃ. ನ ಕದಾಚಿಜ್ಜಗತ್ಯಸ್ಮಿನ್ ತತ್ವಜ್ಞೋ ಹಂತ ಖಿದ್ಯತಿ ಯತ ಏಕೇನ ತೇನೇದಂ ಪೂರ್ಣಂ ಬ್ರಹ್ಮಾಂಡಮಂಡಲಂ. ನ ಜಾತು ವಿಷಯಾಃ ಕೇಪಿ ಸ್ವಾರಾಮಂ ಹರ್ಷಯಂತ್ಯಮೀ ಸಲ್ಲಕೀ ಪಲ್ಲವ ಪ್ರೀತಂ ಇವೇಭಂ ನಿಂಬ ಪಲ್ಲವಾಃ. ಯಸ್ತು ಭೋಗೇಷು ಭುಕ್ತೇಷು ನ ಭವತ್ಯಧಿವಾಸಿತಃ ಅಭುಕ್ತೇಷು ನಿರಾಕಾಂಕ್ಷಿ ತಾದೃಶೋ ಭವದುರ್ಲಭಃ. ಬುಭುಕ್ಷುರಿಹ ಸಂಸಾರೇ ಮುಮುಕ್ಷುರಪಿ ದೃಶ್ಯತೆ ಭೋಗಮೋಕ್ಷ ನಿರಾಕಾಂಕ್ಷಿ ವಿರಳೋ ಹಿ ಮಹಾಶಯಃ. ಧರ್ಮಾರ್ಥಕಾಮಮೋಕ್ಷೇಷು ಜೀವಿತೇ ಮರಣೇ ತಥಾ ಕಸ್ಯಾಪ್ಯುದಾರಚಿತ್ತಸ್ಯ ಹೇಯೋಪಾದೇಯತಾ ನಹಿ. ವಾಂಚಾ ನ ವಿಶ್ವವಿಲಯೇ ನ ದ್ವೇಷಸ್ತಸ್ಯ ಚ ಸ್ಥಿತೌ ಯಥಾ ಜೀವಿಕಯಾ ತಸ್ಮಾತ್ ಧನ್ಯ ಆಸ್ತೆ ಯಥಾ ಸುಖಂ. ಕೃತಾರ್ಥೋ ಅನೇನ ಜ್ಞಾನೇನ ಇತ್ಯೇವಂ ಗಳಿತಧೀಹಿ ಕೃತಿ. ಪಶ್ಯನ್ ಶೃಣ್ವನ್ ಸ್ಪೃಶನ್ ಜಿಘ್ರನ್ ಅಶ್ನನ್ನಾಸ್ತೆ ಯಥಾ ಸುಖಂ. ಶೂನ್ಯಾ ದೃಷ್ಟಿರ್ವೃಥಾ ಚೇಷ್ಟಾ ವಿಕಲಾನೀಂದ್ರಿಯಾಣಿ ಚ ನ ಸ್ಪೃಹಾ ನ ವಿರಕ್ತಿರ್ವಾ ಕ್ಷೀಣ ಸಂಸಾರ ಸಾಗರೇ. ನ ಜಾಗರ್ತಿ ನ ನಿದ್ರಾತಿ ನೋನ್ಮೀಲತಿ ನ ಮೀಲತಿ ಅಹೋ ಪರದಶಾ ಕ್ವಾಪಿ ವರ್ತತೆ ಮುಕ್ತಚೇತಸಃ. ಸರ್ವತ್ರ ದೃಶ್ಯತೆ ಸ್ವಸ್ಥಃ ಸರ್ವತ್ರ ವಿಮಲಾಶಯಃ ಸಮಸ್ತವಾಸನಾ ಮುಕ್ತೋ ಮುಕ್ತಃ ಸರ್ವತ್ರ ರಾಜತೆ. ಪಶ್ಯನ್ ಶೃಣ್ವನ್ ಸ್ಪೃಶನ್ ಜಿಘ್ರನ್ ಅಶ್ನನ್ ಗೃಹ್ಣನ್ ವದನ್ ವ್ರಜನ್ ಈಹಿ ತಾನೀಹಿ ತೈರ್ಮುಕ್ತೋ ಮುಕ್ತ ಏವ ಮಹಾಶಯಃ. ನ ನಿಂದತಿ ನ ಚ ಸ್ತೌತಿ ನ ಹೃಷ್ಯತಿ ನ ಕುಪ್ಯತಿ ನ ದದಾತಿ ನ ಗೃಹ್ಣಾತಿ ಮುಕ್ತಃ ಸರ್ವತ್ರ ನೀರಸಃ. ಸಾನುರಾಗಾಂ ಸ್ತ್ರಿಯಂ ದೃಷ್ಟ್ವಾ ಮೃತ್ಯುಂ ವಾ ಸಮುಪಸ್ಥಿತಂ ಅವಿಹ್ವಲಮನಾ ಸ್ವಸ್ಥೋ ಮುಕ್ತ ಏವ ಮಹಾಶಯಃ. ಸುಖೇ ದುಃಖೇ ನರೇ ನಾರ್ಯಾಂ ಸಂಪತ್ಸು ಚ ವಿಪತ್ಸು ಚ ವಿಶೇಷೋ ನೈವ ಧೀರಸ್ಯ ಸರ್ವತ್ರ ಸಮದರ್ಶಿನಃ. ನ ಹಿಂಸಾ ನೈವ ಕಾರುಣ್ಯಂ ನ ಔದ್ಧತ್ಯಂ ನ ಚ ದೀನತಾ नाश्चर्यं नैव चक्षोभः क्षीण संसरणे नरे न मुक्तो विषयद्वेष्टाम् न वाम् विषयलोलुपः असंसक्तमनानित्यम् प्राप्ता प्राप्तमुपश्नुते समाधान असमाधाना हिता हितविकल्पनाः शून्यचित्तो न जानाति कैवल्यमिव संस्थितः निर्ममो निरहंकारो न किञ्चिदिति निश्चितः अन्तर्गलित सर्वाशः कुर्वन्नपि करोति न मनः प्रकाश सम्मोह स्वप्न जाड्य विवर्जितः दशाम् कामपि सम्प्राप्तो भवेत् गलितमानसः ॐ अष्टादशोऽध्यायः सर्वम् सन्न्यस्य सर्वता सर्वेषाम् स्वाभाविकतया यत् सत्तामात्रम् वस्तु भासते तस्मिन् निश्चयेन स्थित्वा यः तूष्णीम् भावः स एव परमक्षेमकरः यत्नकराणि अन्यानि साधनानि अपक्वानामेव न तु विदुषाम् यः स्वात्मनि तूष्णीम् आस्ते सः जगद्विलक्षणः तस्य नास्ति कार्यम् द्वन्द्वातीतस्य निर्विकल्पस्य नैष्कर्म्यभावमापन्नस्य तस्य जीवन्मुक्तस्य स्वाभाविका सा निष्ठा आश्चर्यकरा एव अविदुषाम् कर्मण्यासक्तानाम् दीनानाम् स्वात्मनिष्ठस्य धीरस्य मुक्तस्य च आन्तरम् महत्तरमेव तस्य ज्ञानिनः निर्धूतबन्धस्य निष्ठाम् तादृशा एव जानन्ति रागद्वेषादिस्फूर्तिहेतुः गुणदोषाध्यासः निर्द्वैतभावे निष्ठस्य नास्ति यतः आत्मनोऽन्यन्नास्ति तस्य अतः तस्य नास्ति विषयविषयीभेदः नास्ति तस्य स्पृहा जीविते मरणे वा जनसमूहेऽपि अद्वैतात्मदर्शिनः महारण्यवासिनः इव एकान्तता एव शान्तिशतकम् अष्टावक्र उवाच यस्य बोधोदये तावत् स्वप्नवद्भवति भ्रमः तस्मै सुखैकरूपाय नमः शान्ताय तेजसे अर्जयित्वाखिलानर्थान् भोगानाप्नोति पुष्कलान् न हि सर्वपरित्यागम् अन्तरेण सुखी भवेत् कर्तव्यदुःखमार्तण्डज्ज्वालादग्धान्तरात्मनः कुतः प्रशमपीयूषधारासारम् ऋते सुखम् भवोऽयम् भावनामात्रः न किञ्चित् परमार्थतः नास्त्यभावस्वभावानाम् भावाभावविभाविनाम् न दूरम् न च सङ्कोचाल्लब्धमेवात्मनः पदम् निर्विकल्पम् निरायासम् निर्विकारम् निरञ्जनम् व्यामोहमात्रविरतौ स्वरूपादानमात्रतः वीतशोका विराजन्ते निरावरणदृष्टयः समस्तम् कल्पनामात्रम् आत्मा मुक्तः सनातनः इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ निष्कामः किम् विजानाति किम् ब्रूते च करोति किम् अयम् सोऽहमयम् नाहम् इति क्षीणा विकल्पनाः सर्वमात्मेति निश्चित्य तूष्णीम् भूतस्य योगिनः न विक्षेपो न च ऐकाग्र्यम् नातिबोधो न मूढता न सुखम् न च वा दुःखम् उपशान्तस्य योगिनः स्वाराज्ये भैक्ष्यवृत्तौ च लाभालाभे जने वने निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता इदम् कृतमिदम् नेति द्वन्द्वैर्मुक्तस्य योगिनः कृत्यम् किमपि नैवास्ति न कापि हृदिरञ्जना यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः क्व मोहः क्व च वा विश्वम् क्व तद्धानम् क्व मुक्तता सर्वसंकल्पसीमायाम् विश्रान्तस्य महात्मनः येन विश्वमिदम् दृष्टम् स नास्तीति करोतु वै निर्वासनः किम् कुरुते पश्यन्नपि न पश्यति येन दृष्टम् परम् ब्रह्म सोऽहम् ब्रह्मेति चिन्तयेत् किम् चिन्तयति निश्चिन्तो द्वितीयम् यो न पश्यति दृष्टो येनात्मविक्षेपो निरोधम् कुरुते त्वसौ उदारस्तु न विक्षिप्तः साध्याभावात् करोति किम् धीरो लोकविपर्यस्तः वर्तमानोऽपि लोकवत् न समाधिम् न विक्षेपम् न लेपम् स्वस्य पश्यति भावाभावविहीनो यः तृप्तो निर्वासनो बुधः नैव किञ्चित्कृतम् तेन लोकदृष्ट्या विकुर्वता प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् असंसारस्य तु क्वापि न हर्षो न विषादता स शीतलमना नित्यम् विदेह इव राजते कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् आत्मा रामस्य धीरस्य शीतलाच्छतरात्मनः प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया प्राकृतस्येव धीरस्य न मानो नावमानता कृतम् देहेन कर्मेदम् न मया शुद्धरूपिणा इति चिन्तानुरूधी यः कुर्वन् अपि करोति न अतद्वादीव कुरुते न भवेद् अपि बालिशः जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः न कल्पते न जानाति न शृणोति न पश्यति असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः निश्चित्यकल्पितम् पश्यन् ब्रह्मैवास्ते महाशयः यस्यान्तस्यादहङ्कारः न करोति करोति सः निरहङ्कारधीरेण न किञ्चिद् अकृतम् कृतम् नोद्विग्नम् न च सन्तुष्टम् अकर्तृस्पन्दवर्जितम् निराशम् गतसन्देहम् चित्तम् मुक्तस्य राजते निर्ध्यातुम् चेष्टितुम् वापि यच्चित्तम् न प्रवर्तते निर्निमित्तमिदम् किन्तु निर्ध्यायति विचेष्टते तत्त्वम् यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् अथवा याति सङ्कोचम् अमूढः कोऽपि मूढवत् एकाग्रतानिरोधो वाम् मूढैरभ्यस्यते भृशम् धीराः कृत्यम् न पश्यन्ति सुप्तवत् स्वपदे स्थिताः अप्रयत्नात् प्रयत्नाद्वाम् मूढो नाप्नोति निर्वृतिम् तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः शुद्धम् बुद्धम् प्रियम् पूर्णम् निष्प्रपञ्चम् निरामयम् आत्मानम् तम् न जानन्ति तत्राभ्यासपराजनाः नाप्नोति कर्मणा मोक्षम् विमूढोऽभ्यासरूपिणा ധന്യോ വിജ്ഞാനമാത്രേണ മുക്തസ്തിഷ്ഠത്യവിക്രിയഃ. മൂഢോ നാപ്നോതി തദ്ബ്രഹ്മ യതോ ഭവിതുമിച്ഛതി. അനിച്ഛന്നപി ധീരോ ഹി പരബ്രഹ്മസ്വരൂപഭാക്. നിരാധാരാ ഗ്രഹവ്യഗ്രാ മൂഢാ സംസാരപോഷകാഃ ഏതസ്യാനർത്ഥമൂലസ്യ മൂലച്ഛേദകൃതോ ബുധൈഃ. ന ശാന്തിം ലഭതേ മൂഢഃ യതഃ ശമിതുമിച്ഛതി. ധീരസ്തത്വം വിനിശ്ചിത്യ സർവദാ ശാന്തമാനസഃ. ക്വാത്മനോ ദർശനം തസ്യ യദ് ദൃഷ്ടമവലംബതേ. ധീരാഹ തം തം ന പശ്യന്തി പശ്യന്തി ആത്മാനമവ്യയം. ക്വ നിരോധോ വിമൂഢസ്യ യോ നിർബന്ധം കരോതി വൈ. സ്വാരാമസ്യൈവ ധീരസ്യ സർവദാസാവകൃത്രിമഃ. ഭാവസ്യ ഭാവകഃ കശ്ചിൻ ന കിഞ്ചിത് ഭാവകോപരഃ. ഉഭയാഭാവകഃ കശ്ചിത് ഏവമേവ നിരാകുലഃ. ശുദ്ധമദ്വയമാത്മാനം ഭാവയന്തി കുബുദ്ധയഃ. ന തു ജാനന്തി സമ്മോഹാത് യാവത് ജീവം അനിർവൃതാഃ. മുമുക്ഷോഃ ബുദ്ധിരാലംബം അന്തരേണ ന വിദ്യതേ. നിരാലംബൈവ നിഷ്കാമാ ബുദ്ധിർമുക്തസ്യ സർവദാ. വിഷയദ്വീപിനോ വീക്ഷ്യ ചകിതാഃ ശരണാർത്ഥിനഃ. വിശന്തി ഝടിതി ക്രോഡം നിരോധൈകാഗ്രസിദ്ധയേ. നിർവാസനം ഹരിം ദൃഷ്ട്വാ തൂഷ്ണീം വിഷയദന്തിനഃ. പലായന്തേ ന ശക്താസ്തേ സേവന്തേ കൃതചാടവഃ. ന മുക്തികാരികാം ധത്തേ നിശങ്കോ യുക്തമാനസഃ. പശ്യൻ ശൃൺവൻ സ്പൃശൻ ജിഘ്രൻ അശ്നൻ ആസ്തേ യഥാ സുഖം. വസ്തുശ്രവണമാത്രേണ ശുദ്ധബുദ്ധിർനിരാകുലഃ. നൈവാചാരം അനാചാരം ഔദാസ്യം വാ പ്രപശ്യതി. യദാ യത്കർത്തുമായാതി തദാ തത്കുരുതേ ഋജുഃ. ശുഭം വാപ്യശുഭം വാപി തസ്യ ചേഷ്ടാ ഹി ബാലവത്. സ്വാതന്ത്ര്യാത് സുഖമാപ്നോതി സ്വാതന്ത്ര്യാത് ലഭതേ പരം. സ്വാതന്ത്ര്യാത് നിർവൃതിം ഗച്ഛേത് സ്വാതന്ത്ര്യാത് പരമം പദം. അകർത്തൃത്വം അഭോക്തൃത്വം സ്വാത്മനോ മന്യതേ യദാ തദാ ക്ഷീണാ ഭവന്ത്യേവ സമസ്താശ്ചിത്തവൃത്തയഃ. ഉച്ഛൃംഖലാപ്യകൃതികാം സ്ഥിതിർധീരസ്യ രാജതേ. ന തു സസ്പൃഹ ചിത്തസ്യ ശാന്തിർമൂഢസ്യ കൃത്രിമാ. വിലസന്തി മഹാഭോഗൈഃ വിശന്തി ഗിരിഗഹ്വരാൻ. നിരസ്തകൽപ്പനാധീരാ അബദ്ധാ മുക്തബുദ്ധയഃ. ശ്രോത്രിയം ദേവതാം തീർത്ഥം അംഗനാം ഭൂപതിം പ്രിയം. ദൃഷ്ട്വാ സംപൂജ്യ ധീരസ്യ ന കാപി ഹൃദിവാസന. ഭൃത്യൈഃ പുത്രൈഃ കളത്രൈശ്ച ദൗഹിത്രൈശ്ചാപി ഗോത്രജൈഃ. വിഹസ്യധികൃതോ യോഗീ ന യാതി വികൃതിം മനാഃ. സന്തുഷ്ടോപി ന സന്തുഷ്ടഃ ഖിന്നോപി ന ച ഖിദ്യതേ. തസ്യാശ്രദ്യ ദശാം താം താം താദൃശായേവ ജാനതേ. കർത്തവ്യതൈവ സംസാരഃ ന താം പശ്യന്തി സൂരയഃ. ശൂന്യാകാരാ നിരാകാരാം നിർവികാരാ നിരാമയാഃ. അകുർവന്നപി സംക്ഷോഭാത് വ്യഗ്രഃ സർവത്ര മൂഢധീഃ. കുർവന്നപി തു കൃത്യാനി കുശലോ ഹി നിരാകുലഃ. சுகமாஸ்தே சுகம் சேதே சுகமாயாதி யாதி ச. சுகம் வக்தி சுகம் புங்க்தே வ்யவஹாரே பிஷாந்ததீ. ஸ்வபாவாத்யஸ்ய நைவார்த்திஹி லோகவத்யவஹாரிணஹ. மஹாஹ்ருதைவாக்ஷோப்யோ கதக்லேஷஸ் சுஷோபதே. ஏகஷஷ்டிதமஹ ஸ்லோக. நிவிருத்திரபி மூடஸ்ய ப்ரவிருத்திருபஜாயதே ப்ரவிருத்திரபி தீரஸ்ய நிவிருத்தி ஃபலபாகினி. பரிக்ரஹேஷு வைராக்யம் ப்ராயோ மூடஸ்ய துஷ்யதே. தேஹே விகலிதாஶஸ்ய க்வ ராகஹ க்வ விராகதா. பாவனா பாவனாஸக்திஹி த்ருஷ்டிர்மூடஸ்ய ஸர்வதா. பாவ்ய பாவனயா ஸாது ஸ்வஸ்தஸ்யா த்ருஷ்டிரூபிணீ. ஸர்வாரம்பேஷு நிஷ்காமஹ யஶ்சரேத் பாலவன்முனிஹ. நலேபஸ்தஸ்ய சுத்தஸ்ய க்ரியமாணேபி கர்மணி. சயேவ தன்யஹ ஆத்மஜ்ஞஹ ஸர்வபாவேஷு யஸ் ஸமஹ. பஷ்யன் ஶ்ருண்மன் ஸ்பிருஷன் ஜிக்ரன் அஶ்னன் நிஸ்தர்ஷமானஸஹ. க்வ சம்சாரஹ க்வ சாபாஸஹ க்வ சாத்யம் க்வ ச சாதனம். ஆகாஶஸ்யேவ தீரஸ்ய நிர்விகல்பஸ்ய ஸர்வதா. சஜயத்யர்த்த சந்யாசி பூர்ணஸ்வரஸ விக்ரஹ. அகிருத்ரிமோ அனவச்சின்னே சமாதிர்யஸ்ய வர்த்ததே. பஹுநாத்ரகி முக்தேன ஞாத தத்வோ மஹாஷயஹ. போகமோக்ஷ நிராகாம்சி சதா சர்வத்ர நீரஸஹ. மஹதாதி ஜகத்வைதம் நாம மாத்ர விஜ்ரும்பிதம். விஹாய சுத்த போதஸ்ய கிம் க்ருத்யம் அவசிஷ்யதே. ப்ரமபூதமிதம் சர்வம் கிஞ்சின்நாஸ்தீதி நிஶ்சயி. அலக்ஷ்ய ஸ்புரண சுத்த ஸ்வபாவேனைவ ஶாம்யதி. சுத்த ஸ்புரண ரூபஸ்ய த்ருஷ்ய பாவம் அபஶ்யதஹ. க்வ விதிஹி க்வ ச வைராக்யம் க்வ த்யாகஹ க்வ ஶமோபி வா. ஸ்புரதோ அனந்த ரூபேண ப்ரக்ருதிம் ச ந பஶ்யதஹ. க்வ பந்தஹ க்வ ச வா மோக்ஷஹ க்வ ஹர்ஷஹ க்வ விஷாதிதா. புத்தி பர்யந்த சம்சாரே மாயா மாத்ரம் விவர்த்ததே. நிர்மமோ நிரஹங்காரோ நிஷ்காமஶோபதே புதஹ. அக்ஷயம் கத சந்தாபம் ஆத்மானம் பஶ்யதோ முனேஹ. க்வ வித்யா க்வ ச வா விஶ்வம் க்வ தேஹோஹம் மமேதி வா. நிரோதாதீனி கர்மாணி ஜஹாதி ஜடதீர்யதி. மனோரதான் பிரலாபாம்ஷ கர்த்தும் ஆப்னோதி தக்ஷணாத். மந்தஸ்ருத்வாபி தத்வஸ்து ந ஜஹாதி விமூடதாம். நிர்விகல்போ பஹிர்யத்னாத் அந்தர்விஷயலாலசஹ. ஞானாத் கலித கர்மாயஹ லோகதிஷ்ட்யாபி கர்மக்ருத். நாப்னோத்யவசரம் கர்த்தும் வக்துமேவ ந கிஞ்சன. க்வ தமஹ க்வ ப்ரகாஶோ வா ஹானம் க்வ ச ந கிஞ்சன. நிர்விகாரஸ்ய தீரஸ்ய நிராதங்கஸ்ய ஸர்வதா. க்வ தைர்யம் க்வ விவேகித்வம் க்வ நிராதங்கதாபி வா. அநிர்வாச்ய ஸ்வபாவஸ்ய நிஸ்வபாவஸ்ய யோகினஹ. ந ஸ்வர்கோ நைவ நரகோ ஜீவன் முக்திர்ந சைவ ஹி. பஹுநாத்ர கி முக்தேன யோக திருஷ்ட்யா ந கிஞ்சன. நைவ ப்ரார்த்தயதே லாபம் நாலாபேனானுசோசதி. தீரஸ்ய சீதலம் சித்தம் அமிர்தேனைவ பூரிதம். न शान्तं स्तौति निष्कामः न दुष्टमपि निन्दति समदुःखसुखस्तृप्तः किञ्चित् कृत्यं न पश्यति धीरो न द्वेष्टि संसारम् आत्मानं न दिदृक्षति हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः तुष्टिः सर्वत्र धीरस्य यथा पतितवर्तिनः स्वच्छन्दम् शरतो देशान् यत्रास्तमितशायिनः पतदूदेतु वा देहः नास्य चिन्ता महात्मनः स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः अकिञ्चनः कामचारो निर्द्वन्द्वश्चिन्न संशयः असक्तः सर्वभावेषु केवलो रमते बुधः निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः सुभिन्नहृदयग्रन्थिः विनिर्धूतरजस्तमः सर्वत्रानवधानस्य न किञ्चिद्वासना हृदि मुक्तात्मनो वितृप्तस्य तुलना केन जायते जानन्नपि न जानाति पश्यन्नपि न पश्यति ब्रुवन्नपि न च ब्रूते कोऽन्यो निर्वासनाद्धृते भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते भावेषु गलिता यस्य शोभनाशोभनामतिः क्व स्वाच्छन्द्यम् क्व सङ्कोचः क्व वा तत्त्वविनिश्चयः निर्व्याजाज्यवभूतस्य चरितार्थस्य योगिनः आत्मविश्रान्तितृप्तेन निराशेन गतार्थिना अन्तरे यदनुभूयेत तत्कथम् कस्य कथ्यते सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः सुबुद्धिरपि निर्बुद्धिः साहङ्कारो अनहङ्कृतिः न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् न मुमुक्षुर्न वा मुक्तः न किञ्चिन्न च किञ्चन विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः मुक्तो यथास्थिति स्वस्थः कृतकर्तव्यनिर्वृतः समः सर्वत्र वैतृष्ण्याद् न स्मरत्यकृतम् कृतम् न प्रीयते वन्द्यमानः निन्द्यमानो न कुप्यति नैवोद्विजति मरणे जीवनेनाभिनन्दति न धावति जनाकीर्णम् नारण्यम् उपशान्तधीः यथा तथा यत्र तत्र सम एवावतिष्ठते ॐ एकोनविंशोऽध्यायः अनुभवज्ञानेन निर्धूतविकल्पवृत्तेः स्वमहिम्नि स्थितस्य स्वस्य आत्मनः अन्यत् किञ्चिदपि नास्ति इति जनकस्य स्वानुभवोद्घोषः जनक उवाच तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् नानाविधपरामर्शशल्योद्धारः कृतो मया क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता क्व द्वैतम् क्व च वा द्वैतम् स्वमहिम्नि स्थितस्य मे क्व भूतम् क्व भविष्यद्वा वर्तमानमपि क्व वा क्व देशः क्व च वा नित्यम् स्वमहिम्नि स्थितस्य मे क्वचात्मा क्वचवानात्मा क्वशुभम क्वाशुभम तथा क्वचिंता क्वचवाचिंता स्वमहिम्निस्थितस्य मे क्वस्वप्नः क्वसुषुप्तिर्वा क्वच जागरणम् तथा क्वतुरीयम् भयम् वापि स्वमहिम्निस्थितस्य मे क्वदूरम् क्वसमीपम् वा बाह्यम् क्वाभ्यन्तरम् क्ववा क्वस्थूलम् क्वचवा सूक्ष्मम् स्वमहिम्निस्थितस्य मे क्व मृत्युः जीवितम् वा क्व लोकाः क्वास्य क्व लौकिकम् क्व लयः क्व समाधिर्वा स्वमहिम्निस्थितस्य मे अलम् त्रिवर्गकथया योगस्य कथयाप्यलम् अलम् विज्ञानकथया विश्रान्तस्य ममात्मनि ॐ विंशतितमोऽध्यायः शुद्धबोधात्मस्वरूपे स्वस्मिन् प्रमातृप्रमेयादीनि द्वन्द्वानि त्रिपुट्यः कर्माणि लोकः जीवाः माया संसारः मोक्षः इत्यादि विकल्पपरम्पराः न सन्तीति जनकस्य डिण्डिमघोषः। जनक उवाच क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः क्व शून्यम् क्व च नैराश्यम् मत्स्वरूपे निरञ्जने क्व शास्त्रम् क्वात्मविज्ञानम् क्व वा निर्विषयम् मनः क्व तृप्तिः क्व वितृष्णत्वम् गतद्वन्द्वस्य मे सदा क्व विद्या क्व च वा विद्या क्वाहम् क्वेदम् मम क्व वा क्व बन्धः क्व च वा मोक्षः स्वरूपस्य क्व रूपिता क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा क्व तद्विदेहकैवल्यम् निर्विशेषस्य सर्वदा क्व कर्ता क्व च वा भोक्ता निष्क्रियम् स्फुरणम् क्व वा क्वापरोक्षम् फलम् वा क्व निःस्वभावस्य मे सदा क्व लोकः क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा क्व बद्धः क्व च वा मुक्तः स्वस्वरूपे अहमद्वये क्व सृष्टिः क्व च संहारः क्व साध्यम् क्व च साधनम् क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये क्व प्रमाता प्रमाणम् वा क्व प्रमेयम् क्व च प्रमा क्व किञ्चित् क्व न किञ्चिद्वा सर्वदा विमलस्य मे क्व विक्षेपः क्व चैकाग्र्यम् क्व निर्बोधः क्व मूढता क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे क्व चैष व्यवहारो वा क्व च सा परमार्थता क्व सुखम् क्व च वा दुःखम् निर्विमर्शस्य मे सदा क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे क्व प्रवृत्तिर्निवृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा कोपदेशः क्व वा शास्त्रम् क्व शिष्यः क्व च वा गुरुः क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे क्व चास्ति क्व च वा नास्ति क्वास्ति चैकम् क्व च द्वयम् बहुनात्र किमुक्तेन किञ्चिन्नोत्तिष्ठते मम ओ इति अष्टावक्र संहिता समाप्ता।